तो नव आज कौन सी अध्याय हम पाठ करेंगे? ये पाठ करने से फायदा क्या होगा पता है? वेरी गुड। सारे पाप, जैसे पाप पुरुष भी खुद भाग जाएगा। श्रीमद् भगवद गीता नवम अध्याय राजविद्या राजगृह योग श्री भगवान उवाच इदं तु ते गुह्यतमं प्रवक्ष्यामि मनसूयवे ज्ञानं विज्ञान सहितं यज्ञात्वा मोक्षशेषभा राजविद्या राजगृहं पवित्रं इदमुत्तमं प्रत्यक्षावगमं धर्मं सुसुखं कर्तुमभयम् अश्रद्धधाना पुरुषा धर्मस्यास्य परन्तप अप्राप्तो मां निवर्तन्ते मृत्यु संसार मन्मनि मया ततम् इदं सर्वं जगद् अव्यक्त मूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः न च मत्स्थानि भूतानि पश्य मे योगमैश्वरं भूतभिन्न च भूतस्थो ममात्मा भूतभावनः यथाकाशो स्थितो नित्यं वायु सर्वगतो महान् तथा सर्वाणि भूतानि मत्स्थानि तुपधारय सर्वभूतानि कौन्तेय प्रकृतिं जान्ति मामिकं कल्पक्षये पुनस्तानि कल्पादो विश्रियामहम् प्रकृतिं श्यामवष्टभ्य विश्रिजामि पुनः पुनः भूतग्राममिमं कृत्स्नम् अवशं प्रकृतिर्वशा न च मान्तानि कर्माणि निबध्नन्ति धनञ्जय उदासीन बदासीनम् असक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति सचराचरं हेतुनानेन कौन्तेया जगत् विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितं परं भावम् अजानन्त मम भूतो महेश्वरं मोघाशा मोघकर्मानो मोघज्ञाना विचेतसः राक्षसीम् आसुरीं चैव प्रकृतिं महिने स्मृता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रितः भजन्ते अनन्न मनसो ज्ञात्वा भूतानिमभयम् सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता नमस्सन्तश्च मां भक्ता नित्ययुक्तायुपाशते ज्ञानजज्ञेन चाप्यन्ने जजन्तो मामुपासते एकत्वेन पृथक्तेन बहुधा विश्यतो मुखम् अहं क्रतुरहं यज्ञ स्वधाहं अहमौषधं मन्त्रोऽहम् अहम् अभोज्यम् अहम् अग्निरहंहुतम् पीतामहस्य जगतो माता धाता पितामह वेदं पवित्रमोङ्कार ऋक्षां यजुरेव च गतिर्भर्ता प्रभुसाक्षी निवास शरणं सुरे प्रभव प्रलयस्थानं निधानं बीजमभयम् तापामहमहं वर्षं निगृह्णम् उत्सृजामि च अमृतच्चैव मृत्युश्च सदा सच्चाहम् अर्जुन त्रैविद्यामान् सोमपापूत पापा जग्गैरिष्टा सर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नुति दिव्यं दिवि देवपुराणं ते तं भक्त्या सर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्न्या गतागतं कामकामा लभन्ते अनन्नश्चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं येऽपि अन्नदेवता भक्ता जजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय जजन्त्या विधिपूर्वकम् अहं हि सर्वजज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्ते नातश्च वन्तिते जान्ति देवव्रता देवा पितृञ्जान्ति पितृव्रता भूतानि जान्ति भूतेजा जान्ति मध्याजिनौ किमा पत्रं पुष्पं फलं तोयं यो मे भक्ता भजिष्यति तदहं भक्तोपहृतम् अश्नामि प्रजतात्मनः यत्करोषि यदश्नासि यज्जुहसि तदाश्रय यत्तपस्योषि कौन्तेय तत्कुरुष्य मदर्पणम् शुभाशुभफलैरेव मोक्षसे कर्मबन्धने सन्न्यासयोगयुक्तात्मा विमुक्तो मां पश्यसि समोऽहं सर्वभूतेषु न मे देशस्ति न प्रियं ये भजन्ति तु मां भक्ता मयि एतेषु चाप्यहम् अपि चेत् सुदुराचार भजते मामनन्नभान् साधुरेव समन्तव्य सम्यग्वसितो विशाम् क्षिप्रं भवति धर्मात्मा शश्रच्छान्ते निगच्छति कौन्तेय प्रतिजानीहि न मे भक्ता प्रणश्यति मां हि पार्थ व्यप्यसृत्य येऽपि सुपापजोनय स्त्रिय वैश्यस्तथा शूद्र तेऽपि जान्ति परां गति किं पुनर्ब्रह्मणा पुण्या भक्त्या राजर्षयस्तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजिष्य मां मन्मना भवो मद्भक्तो मज्जाजी मां नमस्तु मामे वैश्यसि दैवम् आत्मानं मत्परायणः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजबुद्धयोग नाम नवम अध्यायः श्रीमद् भगवद्गीता यथारूप